अथ षट्षष्टितमः सर्गः। एवमुक्तो हनुमता रामो दशरथात्मजः तं मणिं हृदये कृत्वा प्ररुरोदसलक्ष्मणः। तं तु दृष्ट्वा मणिश्रेष्ठं राघवशोककर्षितः नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्। यथैव धेनुस्रवति स्नेहाद्वत्सस्य वत्सला तथा ममापि हृदयं मणिरत्नस्य दर्शनात्। मणिरत्नमिदं दत्तं वैदेह्याश्वशुरेण मे वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते। अयं हि जलसम्भूतो मणिस्सज्जनपूजितः यज्ञे परमतुष्टेन दत्तशक्रेण धीमता। इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः। अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः। अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः। पिपासुमिव तो येन सिञ्चन्ति वाक्यवारिणा इतस्तु किं दुःखतरं यदिमं वारिसंभवं। मणिं पश्यामि सौमित्रे वैदेही मागतं विना चिरं जीवति वैदेही यदि मांसं धरिष्यति। न जीवेयं क्षणमपि विना तामसिते क्षणां। नयमामपि तं देशं यत्र दृष्टा मम प्रिया न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च। कथं सा मम शुश्रोणी भीरुभीरुः सती सदा भयावहानां घोराणां मध्ये तिष्ठति रक्षसां। शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः आवृतं वदनं तस्या न विराजति राक्षसैः। किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे एतेन खलु जीविष्ये भेषजेनातुरो यथा। मधुरा मधुरा लापा किमाह मम भामिनी मद्विहीनावरारोहा हनुमन् कथयस्व मे। ॐ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां सुन्दरकाण्डे सीताभाषितप्रश्नो नाम षट्षष्टितमः सर्गः। ॐ